इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः जतिन शर्मा। आदौ मुख्य वार्ताः। बिहार राज्ये विधानसभा निर्वाचनस्य मतगणना श्वः प्रातः 8 वादनात् समारप्स्यते। अनेन प्रत्याशिनां निर्वाचन भाग्यं निर्धारितं भविष्यति। राष्ट्रपति पदासीना द्रौपदी मुर्मुः अद्य बोत्सवाना नगरे भारतीय समुदायस्य सदस्यान् सम्बोधितवती। राष्ट्रपतिः दिल्ल्यां सद्य एव आतंकवाद आक्रमणे मृतकानां परिवाराय मित्रेभ्यश्च स्वीय संवेदनां प्रकटितवती। प्रधानमन्त्री नरेन्द्र मोदी प्रोक्तवान् यत् निर्यातकाणां ऋण गारण्टी योजना वैश्विक प्रतिस्पर्धां प्रवर्ध्य व्यापार संचालनं सरलीकरिष्यति। पाकिस्तानस्य अधिकारिभिः क्वेटा चमनस्थलैः सह बलूचिस्तानस्य कतिचित् जनपदेषु दिनत्रयं यावत् दूरभाषान्तर्जालीय सेवाः निलम्बिताः। अपि च भारतीय लक्ष्यभेदकैः ढाका नगरे आयोजितायां 24वीं एशियाई लक्ष्यभेद प्रतिस्पर्धायां उत्कृष्ट प्रदर्शनेन सह 2 स्वर्णपदके 1 रजत पदकं च विजितम्। अथ वार्ताः विशदीकृत्य। बिहार राज्ये विधानसभा निर्वाचनस्य मतगणना श्वः प्रातः 8 वादनात् समारप्स्यते। बिहार राज्यस्य 38 जनपदानां 46 मतगणना केन्द्रेषु मतानां गणनं भविष्यति। विधानसभायाः 43,200 निर्वाचन क्षेत्राणां कृते 2 चरणयोः निर्वाचनम् अभवत्। इलेक्ट्रॉनिक मतदान यंत्रेषु यत्र सर्वेषां 16,600-2,000 प्रत्याशिनां निर्वाचन भाग्यं निहितमस्ति, तानि यंत्राणि कठोर सुरक्षायाः मध्ये सशक्त प्रकोष्ठेषु स्थापितानि सन्ति। आकाशवाण्या सह वार्तालापं कुर्वन् बिहारस्य मुख्य निर्वाचनाधिकारी विनोद सिंह गुंजियालः अवदत् यत् मतदाने उपयोजितानि ईवीएम यंत्राणि वीवीपीएटी यंत्राणि च त्रिस्तरीय सुरक्षा व्यवस्थायाः अन्तर्गतं सशक्त कक्षेषु स्थापितानि सन्ति। सर्वेषु गणना केन्द्रेषु विस्तृत सुरक्षा व्यवस्था प्रकल्पिता अस्ति। समुचित सुरक्षायै केन्द्रीय सशस्त्र आरक्षक बलानां राज्य आरक्षक बलानां च नियोजनमपि कृतमस्ति। श्रीगुंजियालः प्रोक्तवान् यत् विधानसभाक्षेत्रेषु निर्वाचनार्थं नियुक्ताः पर्यवेक्षकाः अपि गणना प्रक्रियायाः निरीक्षणार्थं गणना केन्द्रेषु उपस्थिताः भविष्यन्ति इति।
टोटल हमारे 46 काउंटिंग सेंटर्स हैं, जहां बिहार के सभी 243 विधानसभा क्षेत्रों के लिए मतों की गणना की जाएगी। काउंटिंग सेंटर्स सीसीटीवी वीडियोग्राफी से फुली कवर्ड हैं और कल 8 बजे से मतगणना का प्रारंभ शुरू हो जाएगा और उसके बाद मोस्ट प्रॉब्ली 9:15 से हम लोग रुझान आने शुरू हो जाएंगे और जब तक कम्प्लीट नहीं होगा चलता रहेगा।
राष्ट्रपति पदासीना द्रौपदी मुर्मुः अद्य बोत्सवाना नगरे भारतीय समुदायस्य सदस्यान् सम्बोधितवती। राष्ट्रपतिः दिल्ल्यां सद्य एव आतंकवाद आक्रमणे मृतकानां परिवाराय मित्रेभ्यश्च स्वीय संवेदनां प्रकटितवती। अत्रावसरे आक्रमणे मृत्युम् उपगतानां स्मृतौ एकनिमिषं मौनमपि आचरितम्। सा प्रोक्तवती यत् भारतीय प्रवासिनः द्वयोः देशयोः मध्ये मित्रतायाः जीवन्त सेतवः सन्ति। सहैव बोत्सवाना देशे 10,000 भारतीयानां समुदायस्य देशस्य आर्थिकवृद्धये तेषां योगदानस्य प्रशंसाम् अपि अकरोत्। राष्ट्रपतिः अवदत् यत् भारतं 47,000-2,000 विकसित भारतं भवितुं प्रयत्नशीलः अस्ति, तथा च प्रवासिनः अपि अस्याः विकासयात्रायाः अभिन्नभागाः सन्ति। सा अवदत् यत् तेषाम् उपलब्धयः भारतस्य गौरवम् अस्ति, तेषां साफल्येन भारतस्य गौरवः वर्धते। सा भारतबोत्सवाना सम्बन्धेषु योगदानम् अनुवर्तयितुं समुदायम् अपि सम्प्रार्थयत्। प्रधानमन्त्री नरेन्द्र मोदी प्रोक्तवान् यत् निर्यातकाणां ऋण गारण्टी योजना वैश्विक प्रतिस्पर्धां प्रवर्ध्य व्यापार संचालनं सरलीकरिष्यति। सामाजिक संजालीय सन्देशे श्रीमोदिना केन्द्रीय मन्त्रिमण्डलस्य निर्णायकानां प्रशंसा कृता। तेन प्रोक्तं यत् निर्यात प्रवर्धन अभियानं तावत् निर्यात स्पर्धात्मकतां समीकरिष्यति। एमएसएमई इत्येतत् प्रथमतया निर्यातकर्तृणां श्रमप्रधानक्षेत्राणां च साहाय्यं करिष्यति इति। श्रीमोदी प्रोक्तवान् यत् ईपीएम प्रमुखान हितधारकान एकीकृत्य तादृशस्य तन्त्रस्य निर्माणं करोति यत्तु परिणामाधारितं प्रभावयुतञ्च भवेत्। प्रधानमन्त्री अग्रे अकथयत् यत् केन्द्रीयमन्त्रिमण्डलस्य महत्वपूर्णानां खनिजानां मुख्यमानानां युक्तियुक्तनिर्णयेन स्थिरता स्वावलम्बनं च प्रवर्धयिष्यते। तेन प्रोदीरितं यत् अनेन पदक्रमेण आपूर्तिश्रृंखला सुदृढी भविष्यन्ति, सहैव नूतनवृत्त्यवसराश्च निर्मिताः भविष्यन्ति। संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर चुलदूरभाषीयतन्त्रांशे अपि समुपलब्धो भविष्यति। प्रधानमन्त्री नरेन्द्रमोदी नवम्बर मासस्य एकोनविंशे दिनांके तमिलनाडुराज्यस्य कोयम्बटूरनगरस्य यात्रायै गमिष्यति। अत्रावसरे सः तमिलनाडुराज्यस्य कृषकसंघैः आयोजिते दक्षिणभारत प्राकृतिक कृषिशिखरसम्मेलनं सम्बोधयिष्यति। प्रधानमन्त्री दक्षिणराज्येभ्यः आगतैः जैविक कृषिविशेषज्ञैः 50 वैज्ञानिकैः सह अपि संवादं साधयिष्यति। अस्मिन् शिखरसम्मेलने व्यापक प्राकृतिक कृषिकार्याय नीतयः निर्मास्यन्ते। अवसरेऽस्मिन् 300 पण्यकेन्द्रैः संवलिता प्रदर्शनी, प्रख्यात वैज्ञानिकानां नीति निर्मातृणां च संवादसत्राणि, सजव प्रदर्शनानि, युवकानां महिलानां च सहभागिताश्च अस्य आयोजनस्य केन्द्रबिन्दवः भविष्यन्ति। कार्यक्रमस्तावत् भारतीय प्राकृतिक कृषिधान्यं सहैव परम्परा कृषि विकास योजना इत्यादिभिः राष्ट्रियोपक्रमैः सञ्चाल्यते। राष्ट्रपति पदासीना द्रौपदी मुर्मुः अद्य चीता परियोजनायाः अन्तर्गतं भारते स्थानान्तरणार्थं बोत्सवाना देशेन चित्रव्याघ्राणां प्रतीकात्मक हस्तान्तरणम् अपश्यत्। बोत्सवाना देशस्य राष्ट्रपतिः डूमा बोको इत्येषः अपि अस्मिन् कार्यक्रमे उपस्थितः आसीत्। गृहीताः व्याघ्राः मूलरूपेण घाञ्जी प्रदेशस्य आसन्, ये भारत बोत्सवाना देशयोः विशेषज्ञैः सहकार्येण मोकोलोडी अभयारण्ये स्थिते संगरोधकेन्द्रे विमोचिताः। बोत्सवाना देशः भारते व्याघ्र जनसंख्यायाः पुनरुत्थानाय 8 व्याघ्राणां दानं करिष्यति। व्याघ्र परियोजना एका अद्वितीयोपक्रमः अस्ति यस्योद्देश्यं व्याघ्राणां दशकेभ्यः विलुप्ततायाः अनन्तरं पुनः भारतं प्रति आनयनम् इत्यस्ति। 2020-2000 सितम्बर मासे नामीबिया देशात् 8 व्याघ्राः कुनो राष्ट्रिय उद्याने संस्थानान्तरिताः। एतावता भारतं प्रति प्रेषिताः व्याघ्राः तेषां नूतन परिवेशे सम्यक् प्रकारेण सम्पृक्ताः सन्ति। पाकिस्तानस्य अधिकारिभिः क्वेटा चमनस्थलैः सह बलूचिस्तानस्य कतिचित् जनपदेषु दिनत्रयं यावत् दूरभाषान्तर्जालीय सेवाः निलम्बिताः। बलूचिस्तानस्य निवासिनां सञ्चारः, व्यावसायिक क्रियाकलापाः, दैनन्दिन जीवनं च अनेन बाधितम् अभवत्। भारत ऋतु विभागेन अद्य केरल माहयोः पृथक्स्थानेषु अतिवृष्टिः भविष्यति इति पूर्वानुमानितम्। छत्तीसगढ़राज्ये, पूर्वराजस्थाने, मध्यप्रदेशे च तीव्र शैत्यतरंगस्य स्थितिः भविष्यति इत्यपि पूर्वानुमानं प्रख्यापितम्। अत्रान्तरे दिल्ली सीम्नः क्षेत्रेषु वायुः गभीर इति वर्गे एव वर्तते। केन्द्रीय प्रदूषण नियन्त्रण मण्डलस्य अनुसारम् अद्य अपराह्णे 1 अस्य प्रदेशस्य वायुगुणवत्ता सूचकांकः 3-4 इति समंकितः। दिल्ली मेट्रो रेल निगमेन कथितं यत् सुरक्षा कारणात् लालकिला मेट्रो स्थानकम् अग्रिम सूचना पर्यन्तं पिहितं भविष्यति। सामाजिक संजालीय संदेशे संसूचितं यत् अन्यानि सर्वाणि केन्द्राणि सामान्य रूपेण कार्यं कुर्वन्ति इति। भारतीय लक्ष्यभेदकैः ढाकानगरे आयोजितायां 24वीं एशियाई लक्ष्यभेद प्रतिस्पर्धायाम् उत्कृष्ट प्रदर्शनेन सह 2 रजतपदकं विजितम्। भारतीय लक्ष्यभेद संघस्य आधिकारिक ट्विटर माध्यमेन प्रदत्त सूचनानुसारं दीपशिखा, ज्योतिसुरेखा वेन्नम, पृथिका प्रदीप च इत्येतासां कम्पाउण्ड महिलादलेन एकस्मिन् रोम हर्षके अन्त्यचक्रे कोरियादेशः पराजित्य स्वर्णपदकं विजितम् इति वार्ताः।